गुरुभ्यो नमः, स्वागतं। वयं प्रार्थनां वदामः। शीला भगिनी,
ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनामधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः, हरि ओम्।
धन्यवादः भगिनी। अस्तु, वयम् अद्य गीतासोपानं पठामः। अस्तु, अत्र गतवर्गे वयम् एतत् पठितवन्तः, परन्तु अद्य वयं पुनः पठामः। अस्तु, वृन्दा भगिनी, वृन्दा भगिनी न, लक्ष्मी भगिनी, भवती पठति वा?
आं भगिनि। न न शोचते, न काङ्क्षते। पश्यत उच्चै, पठत अवगच्छत च।
लट्लकारः। अस्तु, अत्र
रथः गच्छति।
अत्र रथः गच्छति, रथौ गच्छतः, रथाः गच्छन्ति।
उपदिशति, आचार्यौ उपदिशतः, आचार्याः उपदिशन्ति।
अस्तु, इदानीं मोहन् महोदय। मातुलः, नागेन्द्रमहोदय।
मातुलः तिष्ठति, मातुलौ तिष्ठतः, मातुलाः तिष्ठन्ति।
भगिनि, सारी, ऐ गाट् म्यूटेड्।
अस्तु, इदानीं मोहन् महोदय। सचिवः,
सचिवः वर्णयति, सचिवौ वर्णयतः, सचिवाः वर्णयन्ति।
समीचीनम्। अस्तु, इदानीं शीला भगिनी।
सचिवः
न, व्यूहः।
व्यूहः अस्ति, व्यूहौ स्त, व्यूहा सन्ति।
समीचीनं, वेरि गुड् भगिनि। अस्तु, इदानीं
सचिवः एवं व्यूहः इत्युक्ते किं भगिनि?
सचिवः इत्युक्ते सेक्रेटरि अथवा मिनिस्टर्। अनन्तरं किं
व्यूहः?
व्यूहः इत्युक्ते फार्मेशन्। अस्तु,
Bhagini, I didn't get it. Vyuha is?
Like army formation. Or just okay. Formation.
And Varnayati is describing, is it? Sachivaha Varnayati?
Bhagini. Okay. Like describe. Asa. इदानीं राधा भगिनी.
सैनिकः पश्यति, सैनिकौ पश्यतः, सैनिकाः पश्यन्ति.
समीचीनम्. अस्तु इदानीं धीरः इति लक्ष्मी भगिनी.
आं भगिनि, धीरः मुह्यति, धीरौ मुह्यतः, धीराः मुह्यन्ति.
समीचीनम्. अस्तु इदानीं मोहन महोदय.
भगिनी, ऐ केनाट्, केन् यू स्क्रोल् डौन् भगिनी? ओके. स्थितप्रज्ञः अभिनन्दति, स्थितप्रज्ञौ अभिनन्दतः, स्थितप्रज्ञाः अभिनन्दन्ति.
समीचीनम्. इत्युक्ते
किं भगिनि?
भगिनि, ऐ यू वाण्टिङ्ग् द मीनिङ्ग्?
स्थितप्रज्ञः
इस् you know, someone who is even keeled, right?
Focused person.
Yeah, even keeled. Okay. Abhinandati. So, is praiseworthy? Abhinandati.
What is the Kartrupadam?
Oh, Kartrupadam is... Okay, Kriyapadam is Abhinand. Kartru is Sthitapragya, right?
So, Kriyapadam kim?
Abhinandati is the Kriyapadam. Kartrupadam is Sthitapragya.
So, what will be the meaning? Iddikte kim?
Sthitapragya, Abhinandati. So, praising...
He welcomes, like that.
Oh, okay. So, Abhinandati is praising or welcoming?
It can be both.
Okay.
Astu. Anantaram, Bhagini, Nagendran Bhotya.
Bhagini Vadati, Bhaginyo Vadataha, Bhaginyaha Vadanti.
समीचीनम्. इत्युक्ते किं भगिनी वदति?
सिस्टर् इस् टाकिङ्ग्. सिस्टर् सिस्टर्स् आर् टाकिङ्ग्. सिस्टर्स् आर् टाकिङ्ग्.
समीचीनम्. अस्तु इदानीं शीला भगिनी.
गात्रं सीदिति, गात्रे सीदितः, गात्राणि सीदन्ति.
अस्तु इत्युक्ते किं
न जानामि भगिनि.
गात्रम् इत्युक्ते
गात्र बोडि.
न श्रूयते भगिनि, पुनर्वदामि, वदतु.
गात्रम् इस् अ बोडि, शरीर.
आम् समीचीनं. सीदति इत्युक्ते
न जानामि भगिनि.
Sit, athwa sit down. Iti.
Sit, sit, sit down.
Bhagini, it means body sit down or a limb sit down.
Gatram itite body athwa earth. Idati itite sit down athwa sink. Hasa. इदानीं राधा भगिनी
मुखं शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति
इत्युक्ते
मुखम् इस् फेस् शुष्यति
इत्युक्ते ड्रै
The face is dry. The faces are dry. dry faces, okay.
So he dries.
So two faces are dry and many faces are dry, is that?
Like.
Is it like Saha Mukham
Shushyati? Saha Mukham Shushyati.
He dries his face.
Dvau, okay. Dve or Dvau Mukhe Shushyatah.
Dvau, Dvau Mukham Mukhe.
Dvau. Vastrena Mukham Shushyati. Is that right?
Same. Can you repeat your sentence, Bhagini?
Te Mukhani Shushyanti.
Saha Vastrena Mukham Shushyati.
समीचीनम् अस्तु इदानीं लक्ष्मी भगिनी
इन्द्रियं हरति इन्द्रिये हरतः इन्द्रियाणि हरन्ति
समीचीनम्
इन्द्रियम् इस् द
Senses.
Yeah, harati is burning.
Punha vadatu?
Harati.
Itukte seeds athava steel.
Steel.
Asa.
Agane? Harati? I didn't get it.
Seeds athava steel.
Choraha harati.
Okay. Choraha harati. Not same.
Esha Padama Purusha Hasti. अनन्तरं
भगिनि इन्द्रियं हरति प्रयुज्य एकं वाक्यं वदतु भगिनि
इदानीं न जानामि अनन्तरं वदामि वा
ओके आं भगिनि
अनन्तरम् इदानीं
भगिनी केमिसे सः ज्ञानेन इन्द्रियं हरति
अस्तु इदानीं लक्ष्मी भगिनी
आं भगिनि अहं नमामि आवां नमावः वयं नमामः I am doing namaskar and we both are doing and all are, we are all doing namaskara.
Samitinam. Asto, idanim. Mohan Mohatya, Kayati.
One minute. Aham Gayami, Avam Gayavaha, Vayam Gayamaha.
Ah.
So I, Gayami is I sing, both of them sing and they all sing.
Ah.
Samitinam.
We all
sing. Vayam is we all. Yeah.
Samitinam.
So, Bhagini, one question. So, Vayam is we all. So, you all would be, what is the word for that?
Yuyam.
Tvam, Yuvam, Yuyam. Thank you, Mahadeya. Yes, thank you very much.
Samitinam. Idanim Sheila Bhagini.
Aham Ichami, Aham Ichavaha, Vayam Ichamaha.
Ganayami Bhagini. Aham Ganayami.
Aham Ganayami, Avam Ganayavaha. Vayam Ganayamaha. Ganayami is counting, Bhagini?
Value atva number. Count. Samichinam. Asu. Idanim. Nagendra Mahodaya.
Aham. Vindami, Avam Vindavaha, Vayam Vindamaha.
Ichati.
Aham Ichami, Avam Ichavaha, Vayam Ichamaha.
Ichate.
Like, we like, both of us like and all of us like.
Samichinam. Idani, Radha Bhagini.
Aham Vindami, Avam Vindavaha, Vayam Vindamaha. I find, we all find.
Samichinam. Atra prashna ha santiva.
Bhagi.
Hastu. Idani metat kurmaha. Brinda Bhagini, Lakshmi Bhagini.
I can do it, Bhagini. I'll try once in a while. Tvam Pathasi, Yuvam Pathataha, Yuyam Pathata.
Samitina, very good, Bhagini. Asta, Idaniam Lakshmi Bhagini.
Tvam Arhase, Yuvam Arhataha, Yuyam.
Samitinam. Very good, Bhagini. Asto, Idaniam. Mohan Mohati.
Which one, Bhagini? I just missed that one little part.
Asti.
Tvam Chatraha Asi. Tvam chatrah asi, yuvam chatrau stah, yuyam chatrasta. So, tvam is singular. You are chatra, both of you are a student, both of you are students. You all are students. just the opposite of what vayam is. Aham, avam, vayam, tvam, yuvam, yuyam.
Samichin.
Bhagini, what is arhasi?
Able, word.
Arhasi.
Able.
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 Okay.
समीचीनम् अस्तु. अनन्तरम् इदानीम् उपदिशसि नागेन्द्रमहोदय.
त्वम् उपविशसि, युवाम् उपविशतः, यूयम् उपविशतः.
समीचीनं परिकर महोदय. अस्तु, इदानीं शीला भगिनी.
त्वं कथयसि, युवां कथयथ, यूयं कथयथ.
समीचीनम्. अस्तु, अनन्तरम् अभ्यासं कुर्मः. राधा भगिनी.
यतो उदाहरणं रिक्तस्थानानि पूरयतः. स्यूतः अस्ति, स्यूतौ स्तः, स्यूताः सन्ति. बालः उपविशति, बालौ उपविशत, बालाः उपविशन्ति.
समीचीनम्, अत्र स्थगयतु. अनन्तरं शीला भगिनी.
विच् वन् भगिनी? नम्बर् टु.
अश्वः.
अश्वः धावति, अश्वौ धावतौ, अश्वाः धावन्ति.
अत्र अश्वौ धावतौ न,
धावतः.
धावतौ नो
न, अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति.
धावतः.
अस्तु, अनन्तरं इदानीं नागेन्द्रमहोदय. फलं
फलम् और धेनु भगिनि. धेनु,
सारि,
धेनु. धेनु चरतः, धेनु चरतः, धेन्वः चरन्ति.
पुनः वदतु महोदय.
धेनु चरति, धेनु चरतः, धेन्वः चरन्ति.
बहुवचने किं भवति?
धेन्वः चरन्ति. ओ सोरि,
धेन्वः
तीतः अन्ति. सो
धेनवः,
धेनवः, धेनवः चरन्ति.
Bhagini, just one question. So the first one is ekavachanam ukaranta strilinga hai, denuhu, right? Denuhu, denuhu charati.
Correct, correct.
Denuhu,
yes,
charataha, denavaha charanti. Okay, good luck. Thank you.
Asta anantaram phalam iti asta. भवानेव करोतु महोदय.
फलं पतति, फले पततः, फलानि पतन्ति.
समीचीनम्. अस्तु, इदानीं मोहन महोदय.
ओके भगिनि. बालौ, बालौ क्रीडति वन् सेकेण्ड् भगिनि जस्ट् टु सेकेण्ड् बालो ओके बालः क्रीडति बालौ क्रीडतः बालाः क्रीडन्ति
समीचीनं बालः क्रीडति बालौ क्रीडतः बालाः क्रीडन्ति अस्तु अनन्तरं लक्ष्मी भगिनी
आं भगिनि नर्तके रुचते नर्तक्यौ रुचतः नर्तक्यः रुचन्ते
समीचीनं भगिनि अस्तु इदानीं राधा भगिनी
सैनिकः आरोहति सैनिकौ आरोहतः सैनिकाः आरोहन्ति
समीचीनं अस्तु इदानीं शीला भगिनी
प्रणयति प्रयच्छति प्रणश्यति दुष्टः प्रणश्यति दुष्टौ प्रणश्यतः दुष्टाः प्रणय प्रणश्यन्ति
समीचीनम् अस्तु अनन्तरं नागेन्द्र महोदय
डु यु वाण्ट् मी टु डु भक्तः भगिनि भक्तः प्रयच्छति भक्तौः प्रयच्छतः भक्ताः प्रयच्छन्ति एण्ड् देन् नृपः वन् नृपः तुष्यति नृपौ सोरि नृपौ तुष्यतः नृपाः तुष्यन्ति
समीचीनं महोदय अस्तु इदानीं मोहन् महोदय अभ्यासं समापयतु
एषा कुप्यति एते कुप्यतौ एतानि कुप्यन्ति एताः एषा कुप्यति एते कुप्यतौ
कुप्यतः
एताः
कुप्यन्ति
and what is the second dvitiya
ete kupyatah
ete kupyatah kupyati ikaraanta ikaraanta okay kupyatah it's like nadi bagini
which word mohdya
kupyati
kupyati is kriya padam mohdya
Okay, sorry, yes, Kriyapadam. Yeah.
Similar to Tushyati.
Yes, Tushyati, yes, sorry, mistake, sorry. Thank you.
Eshaha Shochati, Tanapikarato.
Which one, Bhagini?
Shochati.
Can you move the paper up, Bhagini?
Yes, I cannot see that, Bhagini.
Asho? इदानीं
या ओके ओके भगिनि सो एते शोचन्ति वन् सेकेण्ड् भगिनि एते ओके एते इस् नाट् द्विवचनं
न महोदय
एते ओके एते ओके एते द्विवचनम् ओके एतः शोचति
आ,
एतः रैट् भगिनि ओके एतः एतौ एते एताः रैट् भगिनि बहुवचनम् इस् एताः रैट् शोचन्ति
एषः एतौ एते
ओ सारि यस् 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 एते यस् एषः शोचति एतौ शोचतौ एते शोचन्ति यस् सारि ऐ जस्ट् गाट् लिटल् कन्फ्यूस् एतः एण्ड् एषः ऐ गाट् कन्फ्यूस् सारि यस्
अस्तु
बिकास् सि एतत् शब्दः द्विवचनम् इस् एते रैट् इवन् दट् इस् एते right
napumsakling napumsakling yeah. and feminine is ete in the middle masculine is ete in the plural
yes yeah, that is exactly right yes so that's where the confusion was thank you so much
atra prashnah santiva atra santichet atra ratah gachyati गच्छति इति क्रियापदमस्ति तत्र गच्छति सर्वाणि रूपाणि वदन्तु गच्छति गच्छतः गच्छन्ति अनन्तरं गच्छसि गच्छतः गच्छत गच्छामि गच्छावः गच्छामः तिष्ठति तस्य रूपाणि किं भवन्ति लक्ष्मी भगिनी
आं भगिनि तिष्ठति तिष्ठतः तिष्ठन्ति तिष्ठतः तिष्ठत तिष्ठामि तिष्ठावः तिष्ठामः
समीचीनम् अनन्तरं वसति मोहन महोदय
वसति वसति वसतः वसन्ति
अनन्तरम्
अनन्तरं केन् यू गिव् मी एन् एक्साम्पल् भगिनि वाट् डु ऐ डु नेक्स्ट्
वससि वससि वसतः वसत
ओके वसति वसतः वसन्ति वसि वसतः वसत वसामि
वसतः
वसन्ति रैट्
अस्तु अनन्तरं पश्यति
पश्यतः पश्यन्ति पश्यसि पश्यतः पश्यत पश्यामि पश्यावः पश्यामः
अस्तु इदानीं वदति कः
वदति
नागेन्द्रमहोदय
वदति वदतः वदन्ति वदसि वदतः वदथ वदामि वदावः वदामः
समीचीनम् इदानीं अस्तु अस्तु शीला भगिनी मुह्यति मुह्यति
मुह्यति मुह्यतः मुह्यन्ति मुह्यसि मुह्यतः मुह्यथ मुह्यामि मुह्याव मुह्याम
समीचीनं
भगिनि केन् यु जस्ट् रिमैण्ड् मी द मीनिङ्ग् भगिनि
टु एर्
टु एर् टु टु मेक् मिस्टेक्
आम्
थेङ्क् यु
like to be foolish asto seedati kaha karoti radha bhagini
aam bhagini
सीदति सीदतः सीदन्ति सीदसि सीदतः सीदथ सीदामि सीदावः सीदामः
समीचीनम् अस्तु इदानीं लक्ष्मी भगिनी हरति
हरति हरतः हरन्ति हरसि हरस्थः हरथ हरामि हरावः हरामः
समीचीनम् इदानीं मोहन् महोदय शुष्यति
ओके शुष्यति and prathama purusha can you repeat the word again shushyasi
shushyati
shushyati shushyatah shushyanti shushyasi shushyatah shushyata shushyami shushyavah shushyamah
samichinu अस्तु अत्र प्रश्नाः सन्ति वा अस्तु इदानीं नागेन्द्रमहोदय गायति
गायति गायतः गायन्ति गायसि गायतः गायथ गायामि गायावः गायामः
अस्तु समीचीनं महोदय इदानीं शीला भगिनी गणयति
गणयति गणयतः गणयन्ति गणयसि गणयतः गणयथ गणयामि गणयावः गणयामः
समीचीनम् समीचीनम् अनन्तरं राधा भगिनी इच्छति
इच्छति इच्छतः इच्छन्ति इच्छसि इच्छतः इच्छथ इच्छामि इच्छावः इच्छामः
समीचीनम् लक्ष्मी भगिनी पठति
पठति पठतः पठन्ति पठसि पठतः पठथ पठामि पठावः पठामः
अनन्तरं मोहन् महोदय
what's the word bagina
namati
namati namatah namanti namasi namathah namatha namami namavah namamah
samichin astu इदानीं अस्तु एतत् कुर्मः अस्तु अत्र बालकः अस्ति बालकौ स्तः बालकाः सन्ति इदानीं मित्रं लक्ष्मी भगिनी भवती करोतु
मित्रम् अस्ति मित्रे स्तः मित्राणि सन्ति
समीचीनम् इदानीं बालिका मोहन् महोदय
बालिका अस्ति बालिके स्तः बालिकाः सन्ति
समीचीनम् इदानीं नागेन्द्रमहोदय
भवती इच्छति भवत्यो इच्छतः भवत्यः इच्छन्ति
समीचीनम् इदानीं शीला भगिनी
भवान् भवान् इच्छति भवन्तौ इच्छतः भवन्तः इच्छन्ति
समीचीनम् इदानीं सः इति राधा भगिनी
सः वदति तौ वदतः ते वदन्ति
समीचीनम् इदानीं सा लक्ष्मी भगिनी
सा वदति ते वदतः ताः वदन्ति
अस्तु इदानीं मोहन महोदय
तत् so I do the same vadati tat vadati no
you can do any
okay. Tat vadati te vadatah tani vadanti te tani actually that doesn't make sense right tat is napunsaka lingam and that yes. Speaking doesn't make sense right it's so logical
that can be mitra that, right
no, but napunsaka lingam vadati that's not an appropriate sentence I think right
no mahodaya if you have mitram it works mitram is also napunsaka lingam
Okay, yes. Okay, I got it. Okay.
Yes.
I can do the next Bhagini.
Yes, sir. Printa Bhagini, Bhati Avkarata.
Eshaha Ichchati, Etau Ichchataha, Ete Ichchanti.
Samichina. Anantaram. Nagindar Mahodhya.
एषा वदति एते वदतः एते सोरि एताः वदन्ति
समीचीनम् अस्तु अनन्तरं शीला भगिनी
भगिनी एषः
मुनिः
मुनिः इच्छति मुनेः इच्छतः मुनयः इच्छन्ति आल् त्री विल् वर्क् रैट् भगिनी मुनयः वदति
मुनिः एण्ड् मुनेः शीला भगिनी जस्ट सेड मुनेः सर वाज जस्ट वन
ओ डिड आई मुनिः मुनी मुनयः
Bhagini, one question. So Muni is like Hari, right?
Mahodaya.
Ikaranta Muni. So Hari Harayaha. So there is no Munehe, right here?
No.
Okay. Because that would become Saptam, no, Shashti Vibhakti, right? Munehe?
अस्तु इदानीं राधा भगिनी
गुरुः अस्ति गुरुस्तः गुरवः सन्ति
समीचीनम् अनन्तरं नागेन्द्र महोदय
पिता अस्ति पितरौ सः पितरः सन्ति
समीचीनम् इदानीं मोहन महोदय
माता मातरौ मातरः ओके माता इच्छति मातरौ इच्छतः मातरः इच्छन्ति
समीचीनम् अस्तु अनन्तरम् इदानीं लक्ष्मी भगिनी
व्यक्तिः वदति व्यक्ती वदतः व्यक्तयः वदन्ति
समीचीनं वेरि गुड् भगिनि इदानीं वृन्दा भगिनी कर्तुं शक्नोति वा
आं भगिनि धेनुः अस्ति धेनुः अस्ति धेनु स्तः धेनवः सन्ति
समीचीनम् अस्तु इदानीं शीला भगिनी
वधुः वदति वध्वौ वदतः वध्वः वदन्ति
समीचीनम् अस्तु अस्तु अत्र प्रश्नाः सन्ति वा अस्तु इदानीं मध्यमपुरुषः अपि उत्तमपुरुषः अस्ति कः पठति लक्ष्मी भगिनी
मध्यमपुरुषः त्वम् असि युवां स्तः यूयं स्त गच्छसि युवां गच्छतः यूयं गच्छत त्वं वससि युवां वसतः यूयं वसत
अस्तु अत्र स्थगयतु अस्तु इदानीं उत्तमपुरुषस्य रूपाणि कः पठति नागेन्द्रमहोदय
अहम् अस्मि आवां स्वः वयं स्मः अहं गच्छामि आवां गच्छावः वयं गच्छामः अहं वसामि आवां वसावः वयं वसामः
समीचीनम्
भगिनि वाट् इस् द मीनिङ्ग् आफ् आवां स्वः
अस्तु अन्ये प्रश्नाः सन्ति वा
सो दिस् वी हेव् कवर्ड् प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः इस् फस्ट् पर्सन् रैट्
Tama is us.
Tama is us, yeah.
Astu. Iraniyam. Atra kaha patati. Nagendar Mahodaya.
Uchai patataha janati cha. Eka vachana prayogaha yatha. Vartaman kale vishesha kriya padani. कः जानाति का करोति
एकवचनप्रयोगः यथा
एकवचनप्रयोगः यथा कः जानाति का करोति भवान् चिनोति होता जुहोति
महोदय
एषः क्रीणाति एषा शक्नोति मित्रं प्राप्नोति दाता ददाति सः गृह्णाति सा शृणोति भीरुः रोदिति एषः भग्नाति बध्नाति बध्नाति
अस्तु अत्र स्थगयतु प्रथमः वाक्यं प्रथमः प्रथमं वाक्यं किं कः जानाति
Who knows?
तस्य रूपाणि किं भवन्ति तत्र कः जानाति कौ जानीतः तत्र विशेषः अस्ति तत्र जानाति जानीतः जानन्ति इति अस्ति अनन्तरं क्रीणाति क्रीणीतः इति भवति क्रीणन्ति गृह्णाति गृह्णीतः गृह्णन्ति अस्तु अनन्तरं
भगिनि भगिनि वन् क्वश्चन् सो वेन् यु डू कः कः इस् मकारान्त पुंलिङ्ग रैट् कः कौ के इट् शुड् बि वै इस् इट् काः बिकास् दिस् बिकम्स् फेमिनैन् स्त्रीलिङ्ग बहुवचनं काः रैट् इफ् जानाति जानीतः जानन्ति देन् कः कौ
एतत् स्त्रीलिङ्गे अस्ति
एतत् स्त्रीलिङ्गम् ओके देन् इट् मेक्स् सेन्स् ओके सो इट् इस् नाट् गोयिङ्ग् वन् आफ्टर् दि अदर् देन् ओके ओके मेक्स्
सेन्स् देट् इस् का करोति तौ कुरुतः एण्ड् भवन्तः कुर्वन्ति लैक् देट् So it is changing.
Okay, okay, Bhagini.
Bhagini, that's why it's changing in Eshaha Krinati and Bhavatyau Krinitaha also, right?
That's why I'm just taking the verbs.
Yeah.
Okay. Janati, Janitaha, Jananti. Astu. Krinati, Krinitaha, Krinanti. क्रीणाति क्रीणीतः क्रीणन्ति लैक् दिस् मोहन् महोदय केन् यू रीड् फर् द सेकेण्ड् कालम्
ओके का करोति तौ कुरुतः भवन्तः कुर्वन्ति
करोति कुरुतः कुर्वन्ति
करोति कुरुतः कुर्वन्ति ओके सो ओके सो दि क्रियापदम् इस् वाट् यु वाण्ट् रैट् नाट् दि द फस्ट् वन् कः तौ नाट् दट् ओके करोति कुरुतः कुर्वन्ति द नेक्स्ट् कालम्
अनन्तरं शक्नोति
शक्नोति ओके या शक्नोति शक्नुतः शक्नुवन्ति
समीचीनम् अस्तु इदानीं राधा भगिनी शृणोति
शृणोति शृणुतः शृण्वन्ति
समीचीनम् अनन्तरं शीला भगिनी
चिनोति
शीला भगिनी अस्तु नागेन्द्रमहोदय केन् यु म्यूट् यूर्सेल्फ़् देर् इस् लाट्स् आफ़् बेक्ग्रौण्ड् नाय्स् अस्तु इदानीं लक्ष्मी भगिनी
आं भगिनि चिनोति भवान् चिनोति ते चिनुतः ते चिन्वन्ति
समीचीनं
मित्रं प्राप्नोति मित्रे प्राप्नुतः एते प्राप्नुवन्ति. पीरुः रोदिति, पीरु रोदितः, रुदितः, पीरु रुदितः, के रुदन्ति.
समीचीनं.
What is Chinoti, Bhagini?
Chinoti.
Collect. To collect.
Collect.
Athava pile up. Asta. Iranim. मोहन महोदय,
सॉरी यू नो इट टेक्स टाइम फॉर मी टू अनम्यूट सो आई जस्ट डिडंट नो सो प्राप्नोति प्राप्नुतः Is that the one, Bhagini? Prapnoti?
No, Hota.
Hota.
Okay, where is that?
Over here, Mahodaya.
Hota Juhoti,
Mahodaya. Okay, Shurota. Where, Bhagini?
Top left, top right one.
Is the last one.
Hota. Hota Juhoti. होतारौ जुहुतः होतारः जुह्वति.
समीचीनम्. अस्तु, अनन्तरं दाता इति.
दाता ददति. दातारौ दत्तः. दातारः ददति.
भगिनी, इट् इस् नाट् ददन्ति, ददति.
लेट् मी चेक् महोदय.
ददति इस् रैट्.
बहुवचनं. एकनिमिषः. यस्, ददति. इट् इस् करेक्ट् महोदय.
इट्स् नेक्स्ट् लैक् एन् एक्सेप्शन् देन्.
या, दीस् वन्स् आर् विशेष.
या, दीस् आर् आल् लैक् एक्सेप्शन्स्, नाट् जस्ट् दिस् वन्.
द होल् सेट् इस् द वन् विच् आर्
एक्सेप्शन्. या, I think Sheila Bhagini keeps logging out and joining in.
Bhagini, what is Hota Juhoti? Hota word hasn't come across.
Hota
is
one who does yajna, right? Juhoti is post the ghee, I think.
Yeah.
What does it mean, Bhagini?
Sorry?
Hota is the priest who does the fire yajna.
And Juhoti means?
Pouring the ghee.
Oh, okay. Dhanyavad, Bhagini.
Juhu is ghee.
So, Juhu is ghee, Bhagini? Can you please?
Juhoti dite. Sacrifice, athva sprinkle, athva worship.
Yajjuhoti yadashnasi. Okay, that comes here.
Parantu, whatever Radha Bhagini said is also one of the meanings.
So this comes in Bhagavad Gita, right? Yajjuhoti yadashnasi.
In Sri Suktam, I have heard this. Jivyoya jamanmita or something like that. It comes and I had checked once.
Can you say that, Bhagini, slightly loudly? I'm not. In Sri Suktam, what is there?
The word Juhyo Jamanvita comes. So I had checked this once earlier. So that's how I remember it as ghee.
Oh, in Sri Suktam it comes? Okay.
Yes.
Okay, I'll go and check. Okay, thank you.
Samichina. Asta. Anantaram. Anantaram kaha vadati.
I can say it, Bhagini. एषः बध्नाति एतौ बध्नीतः एते बध्नन्ति
समीचीनम् अस्तु
बध्नाति इत्युक्ते किं भगिनि
इत्युक्ते सील् न न फिक्स् अथवा केच् फास्टन् टै अथवा बैट्
केप्चर्
हिन्दी लैक् बन्द् बान्द्
आम्
टु टै अप्
आम् समीचीनम् अस्तु एतत् चित्रं पश्यत चित्रे के के किं किं कुर्वन्ति इति यतोदाहरणं वाक्यानि लिखत अस्तु एतत् कुर्मः अस्तु किं किम् अस्ति अत्र तत्र उदाहरणं दत्तमस्ति धेनवः चरन्ति कुत्र किलनीपदि अस्तु अत्र अनन्तरं
महिलाः महिला महिला
भगिन्यौ वदति
वदति और महिला
सम्भाषणं कुर्वन्ति
महिलौ महिले
बालकौ दावति दावत
लता लते
एकनिमिषः एकनिमिषः अत्र अत्र किम् अस्ति
महिले
तु
वदतौ लते रैट् लता
महिले वदतः
अथवा
जल्पतः
सम्भाषणं
कुरुतः
समीचीनं
महिले रैट् दिस् वन् टु महिलास् आर् महिले
महिले
महिला महिले महिलाः सो सो इफ् इट् इस् मोर् देन् टु भगिनि वाट् इस् इट् महिलाः
आम् आं महोदय
महिला पश्यति
कुत्र अत्र वा अस्तु समीचीनम् अत्र
बालौ धावतः
अत्र किम् अस्ति
ते वदन्ति ते वदन्ति रैट् केन् वि से दट् भगिनि ते वदन्ति
ते वदन्ति आल्सो
त्री They are talking to each other. They are not saying it to like someone like an audience, right?
So then what do...
Sambhashanam kurvanti.
Okay. Te sambhashanam kurvanti. Okay.
Atra kemasti.
Devalayam.
Devalayam. Etat kem. Atra kemasti.
Haa. Bagini, there is a female and a male over there, right?
Yugalaha upavishati Bagini.
What does that mean, Bagini?
They two are sitting there. Or maybe couple is what? Dampati?
Vayam na jani maha.
So Yugalaha is a pair, right?
I'm not sure, Bhagini. One minute.
Yugala is the pair, Bhagini. Yugala...
Mahila cha varta upavishanti.
Ek namshaha.
But they're two different. One is a male and a female. So I don't know. And it is two.
Hi. एकनिमिषः पश्यामि.
Yugalaha, I know for sure because I read in the in book somewhere. Yugalaha is a pair, couple, yeah.
Astu, astu. Anantaram, kutra, astu.
बालौ धावतः
बालौ धावतः कुकुरः
कुकुरः
धावति
क्रीडति
बालकः पश्यति
महिला वाट् इस् महिला पश्यति राइट् दिस् व्हाट् शी इस् जस्ट् वाचिंग्
महिला पश्यति अथवा गच्छति अस्तु अनन्तरं ते सा तत्र किं भवति
सम्भाषणं
कुरुतः
कुरुतः
मित्राः मित्रम् इति भवति वनं वनौ इति वदामः वा
वने
वने वनानि
मित्रे
वने मित्रे मित्रे
अग्रे इत्युक्ते चरति
मित्रे वदत रैट्
वदतः
वदतः
समीचीनम् अस्तु अन्यः किम् अस्ति पर्व किमस्ति अत्र
वने वृक्षाणि
एकनिमिषः अत्र
पर्वते पर्वते स्तः
पर्वते स्तः
भगिनि विशाल द्वयं वृक्षौ स्तः करेक्ट्
वनं वृक्षे
विशेषणं
मास्तु
वृक्षे स्तः
वृक्षे स्तः वनं वृक्षे स्तः
वृक्षेण वृक्षेण वृक्षाः
वृक्षाः
तत्र एकं
वृक्षाणि वृक्षाणि
सन्ति
वृक्षाणि
वृक्षाणि सन्ति
बट् भगिनि इफ् यु वाण्ट् टु से टु ह्यूज् ट्रीस् सो
विशालद्वयं वृक्षौ स्तः
विशालः वृक्षे स्तः
वृक्षे स्तः
वृक्षाः
वृक्षाः द्वयं द्वयं
द्वयं न एकं द्वे त्रीणि चत्वारि परन्तु आल् दोस् आर् बिग् अस्तु
बहवः वृक्षाणि सन्ति
वृक्षाः सन्ति
महिलयोः
भगिनी इट् शुड् बि वृक्षा वृक्षाणि
बालकः
प्रथमाविभक्ति एकवचने किं भवति
वृक्षः
वृक्षः वृक्षाः
वृक्षाः वृक्षाः देवः देवौ देवाः
द्विवचनं विल् बि वृक्षौ देन्
वृक्षौ वृक्षाः
न एकं द्वे त्रीणि चत्वारि पञ्च वृक्षाः एतत् किं जलं वा
सन्ति पञ्चवृक्षाः सन्ति
शिलाखण्डं भगिनि
अस्ति
अनन्तरं अनन्तरं किम् अस्ति
बालः शृणोति
बालकः शृणोति एतत् किम् गृहं वा
मन्दिरम्
अस्तु मन्दिरं मन्दिरद्वयमस्ति अनन्तरं किमस्ति
द्वौ पर्वताः अस्ति केन् वि से देट्
न
टु मौण्टेन्स् ओ स्तः द्वौ पर्वताः स्तः
न
पर्वते स्तः
पर्वते स्तः
पर्वते
सो नो
पर्वतौ पर्वतौ
पर्वत पर्वतौ पर्वतम् इस् नाट् एन् अपुंसकलिङ्ग भगिनि पर्वतम् आर् पर्वतः
पर्वतौ रैट् पर्वतौ
स्तः पर्वतः इति
सो देर् आर् टु मौण्टेन्
पर्वतौ
पर्वतद्वयम् अस्ति
पर्वतद्वयम्
अस्ति ओ वि केनाट् ओके पर्वत
द्वौ पर्वतौ स्तः
स्तः द्वौ पर्वतौ स्तः
ओके अस्तु तावदेव अत्र अनन्तरम् अस्तु एकांशः अस्तु इदानीम् अत्र सारथिः चलति सारथिः चालयति सारथिः चालयतः सारथयः मुनिः
जपति
मुनिः
जपतः
मुनयः
जपन् शत्रुः
शत्रुः
असूयते
शत्रुः
असूयतः
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 शत्रवः
असूयन्ति वाट् इस् असूयन् असूयता भगिनि
जलसि
आम्
अलसि
हेट्रेड् अण्ड् जलसि बोत्
आम् अस्तु अनन्तरम्
इन्द्रियं हरति इन्द्रियाणि हरन्ति दुष्टः विनशयति
विनश्यति
विनश्यति दुष्टौ विनश्यतः दुष्टाः विनश्यन्ति त्वं मोहयसि
राधा भगिनी अत्र स्थगयतु सम्मन् भट् राधा भगिनी
अश्वः धावति
त्वं
सम्बडि हस्ति
त्वं
अस्तु मोहन् महोदय.
ओके, त्वं महयसि युवां त्वं मोहयसि युवां मोहयतः यूयं मोहयत. वाट् इस् मोहयसि मोहयत यतः मोहयत, वाट् डस् दट् मीन् भगिनि?
To stupefy or bewitch.
Huh?
To be bewitched.
To be bewitched.
Yeah. Both of them are bewitched. All of them are bewitched.
Perplex. Trick. Deceive.
Two of them are perplexed. All of them are perplexed.
Ashwah. शीला भगिनी.
अश्वः धावति, अश्वौ धावतः, अश्वाः धावन्ति.
समीचीनम्. अस्तु, प्रश्नाः सन्ति वा? अस्तु, नास्ति चेत् अत्र स्थगयामः. अस्तु, राधा भगिनि.
आं भगिनि. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे पत्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरि ॐ. श्रीगुरुभ्यो नमः. हरि ॐ.
धन्यवादः.